तिलकभूषणमाश्रयन्ति भृङ्गाङ्गनेव मुकुलाभरणं तमालम् अङ्गीकृताखिलविभूतिरमाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवतायाः मुग्धा मुहुर्विदधति वदने मुरारे प्रेमकृपा प्रणिहितानि गतागतानि मालादृशोर्मधुकरीव महोत्मलेया सा मे श्रियं दिशतु सागरसम्भवायाः विश्वामरेन्द्रपदविभ्रमदानदक्षम् आनन्दहेतुरधिकं मुरवीद्विषोऽपि ईशन्निषीदतु मयि क्षणमिक्षणार्धम् इन्दीवरोदर सहोदरमिन्दिरायाः क्षमधिगम्य मुदा मुकुन्दम् आनन्दकन्दमनिमेषमनङ्गतन्त्रम् आकेकरस्थितकनीनिकपक्ष्मनेत्रम् भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः पावन्तरे मधुजितश्रितकौस्तुभेया हारावलीव हरिनीलमयी विभाति कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहतु मे कमलालयायाः कालाम्बुदालि ललितोरसिकैटभारे धाराधरे स्फुरति यातडिदङ्गनेव मातुः समस्तजगता महनीयमूर्ति भद्राणि मे दिशतु भार्गवनन्दनायाः प्रभावान् माङ्गल्यभाजि मधुमाथिनि मन्मथेन मय्यापते तदिह मन्थरमिक्षणार्धम् मन्दालसं च मकरालयकन्यकायाः दत्तादयानुपवनो द्रविणाम्बुधारा अस्मिन्न किञ्चन विहङ्गशिशौ विषण्णे दुष्कर्म घर्ममपनीयचिराय दूरम् नारायण प्रणयिनी नयनाम्बुवाः इष्टा विशिष्टमतयोऽपि यया दयार्द्र दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते दृष्टिप्रहृष्टकमलोदरदीप्तिरिष्टा पुष्टिं कृषिष्ट मम पुष्करविष्टरायाः शाकम्भरीति शशिशेखरवल्लभेति इति प्रलय केलिषु संस्थितायै तस्यै नमः त्रिभुवनैक गुरो सरुण्यै श्रुत्यै नमोऽस्तु शुभकर्म फल प्रसूत्यै रत्यै नमोऽस्तु रमणीय गुणार्णवायै शक्त्यै नमोऽस्तु शतपत्र निकेतनायै पुष्ट्यै नमोऽस्तु पुरुषोत्तम वल्लभायै नमोऽस्तु नालीक निभाननायै नमोऽस्तु दुग्धोदधि जन्मभूत्यै नमोऽस्तु सोमामृतसोदरायै नमोऽस्तु नारायणवल्लभायै सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदानविभवानि सरोरुहाक्षी त्वद्वन्दनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयन्तु मान्ये यत्कटाक्षसमुपासनाविधिः सेवकश्च सकलार्थसम्पदः सन्तनोति वचनाङ्गमानसै मुरारिहृदयेश्वरीं भजे सरसिजनिलये सरोजहस्ते धवलतमांशुकगन्धमाल्यशोभे भगवति हरिवल्लभे मनोगे त्रिभुवनभूतिकरि प्रसीद मह्यम् दिक्खस्तिभिः कनककुम्भमुखावसृष्टा स्वर्वाहिनि विमलचारुजलप्लुताङ्गिम् प्रातर्नमामि जगतां जननीमशेष लोकाधिनाथ गृहिणीममृताभिपुत्रीम् अवलोकय माम किञ्चनाना प्रथमं पात्रं कृत्रिमं दयायाः स्तुवन्ति ये स्तुतिभिरभूमिरन्वहम् त्रयीमयीं त्रिभुवनमातरं रमा गुणाधिकार